एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अद्य माघ संक्रान्ति पर्व स्नान दानादि कार्याणि सम्पाद्य देशव्यापी रूपेण समायोज्यते। सूर्य अद्यतः धनु राशेर मकर राशिं प्रविशति इत्यतः अस्य पर्वणः अपरं नाम मकर संक्रान्तिरपि विद्यते। सौरमानानुसारेण रवि अद्यतो मासषड्कं यावत् उत्तरायणे तिष्ठति। उत्तरायणं हि यज्ञदान पूजादि शुभकर्मणम् कर्मणाम कालः इत्यतोपि उत्तरायणस्य प्रथमदिनत्वात् अस्य महत्वमस्ति। अस्मिन् उपलक्ष्ये श्रद्धालवो भक्तजना ब्राह्ममुहूर्तादेव नदी कुण्ड ह्रद त्रिवेणीयादि जलाशयेषु स्नानदानार्थं सम्मिलिताः सन्ति। माघ संक्रान्त्यां विशेषतो देवघाट बराक्षेत्र रेडी कन्का स्थलेषु विपुलः मेलाः आयोज्यन्ते। देवघाट बराक्षेत्रयोः स्नानाय प्रतिवेशी राष्ट्राद् भारतादपि विपुल मात्रायां जनसमवायाः सम्प्राप्ताः सन्ति। अद्य गृहस्थाः प्रतिगृहं भगवतः पूजापाठौ सम्बन्धिनाम् आमन्त्रणम् घृतशर्करयोः भक्षणम् सहभोजनम् च विदधति इत्यतः सामाजिक सम्बन्ध प्रवर्धनाय च पर्वेदम् महत्वपूर्णम् निभाल्यते। दिवसोऽयम् कतिपयैः समुदायै माघी पर्व नाम्ना सविशेषम् हर्षोल्लासपूर्वकम् समायोज्यते। मकर संक्रान्तेः माघी पर्वणश्च अवसरे अद्य सर्वकारेण आराष्ट्रम् सार्वजनिकावकाशः प्रदत्तोऽस्ति। अस्मिन् उपलक्ष्ये राष्ट्रपतिना विद्यादेवी भण्डारिणा शुभकामना सन्देशम् दत्त्या अनेन पर्वणा नेपालस्य हिमालय पर्वत तराई भागेषु निवसताम् जाति समुदायानाम् जनतायाः मध्ये पारस्परिकी मेल सद्भाव सहिष्णुताः अभिवर्ध्य सामाजिकी सांस्कृतिकी च एकता सुदृढी क्रियते इति विश्वासः व्यक्तो वर्तते। उपराष्ट्रपतिना नन्दबहादुर पुन इत्यनेन गणतन्त्र संघीयता धर्मनिरपेक्षता सामाजिक न्याय सह समानुपातिक समावेशी शासन व्यवस्थायाः रक्षायै संविधानस्य पूर्णपालनम् संरक्षणम् च अनिवार्यस्तः इत्युक्तम् वर्तते। अवसरेऽस्मिन् सभामुखेन अग्निप्रसाद सापकोटाविधेन प्रदत्ते शुभकामना सन्देशे जातीय विविधता अनया सम्पृक्ता संस्कृतिश्च अस्माकम् मौलिक विशेषतास्तीति उल्लिख्य उक्तम् अस्ति। संस्कृतेः संरक्षणम् अस्माकम् कर्तव्यम् वर्तते। मौलिकतायाम् संरक्षितायाम् सत्यमेव नेपालित्वम् रक्षितुम् शक्यते। अद्यैव राष्ट्रिय योग दिवसः विविधैः स्वास्थ्य सञ्चेतना कार्यक्रमैः सह समायोज्यमानो वर्तते। एतस्मिन् अवसरे सन्देशं ददता प्रधानमन्त्रिणा केपी शर्मा ओलिना कोविड 19 विषाणोः प्रकोपस्य विषये प्रामाणिकान्वेषणस्य औषधस्य च अभावेन वर्तमान विश्वस्य प्रभाव कुलतायाः समये योगस्य अतिरिक्तम् महत्वम् सान्दर्भिकता च वर्धिते स्तः इत्युक्तमस्ति। प्रधानमन्त्रिणा ओलिना सन्देशे योगाध्यानाहार विहारेषु जीवनपद्धतेः रूपेण प्रतिदिनम् अवलम्बितेषु सत्सु महामार्याः संक्रमणस्य प्रतिकरणम् सहजम् भविष्यतीति भाषितम्। प्रधानमन्त्री ओली सन्देशे हिमवत्खण्ड प्राचीनकालात् ऋषिमुनीनाम् तपोभूमेः रूपेण विद्यमानोऽस्तीति हेतोः नेपालः योगस्य उद्गमस्थलम् अस्तीति उल्लेखन पुरस्सरम् योगाभ्यास आयुर्वेदश्च विश्वसनीया प्राचीना च उपचार पद्धतिः वर्तते इत्यतः स्वस्थं स्थातुम् एतस्याः अभ्यासाय अन्वरुणत्। नेपाले सप्तत्यधिक द्विसहस्रतम विक्रमाब्धस्य माघमासस्य प्रथमदिवसात् राष्ट्रिय योग दिवस समायोज्यमानोऽस्ति। एतस्मिन् वर्षे कोरोना महामार्याः कारणेन संगणकीय विधिना टेलिभिजन प्रणाल्यां प्रत्यक्ष प्रसारणेन च दिवसोऽयं समायोज्यते। दिवसम् अमुम् आयोजयितुम् शिक्षा विज्ञान प्रविधि मन्त्रिणः कृष्णगोपाल श्रेष्ठस्य संयोजकत्वे मूलायोजक समितिः संगठितास्तीति मन्त्रालयस्य प्रवक्ता दीपक शर्मा अवोदयत्। सर्वोच्च न्यायालयेन प्रतिनिधिसभायाः विघटनस्य विरूद्धे पञ्जीकारितस्य न्यायिक प्रकरणस्य श्रवणम् श्वशुक्रवासरे भविता। प्रधान न्यायाधीशस्य चोलेन्द्र शमशेर जबरा इत्यस्य नेतृत्वस्य सांविधानिक न्यायपीठे न्यायिक विमर्शनस्य असमाप्तेः कारणेन विमर्शनस्य क्रमे एव संस्थाप्य श्वशुक्रवासरे श्रवणं विधाता। प्रधान न्यायाधीशेन सहितानां न्यायाधीशानां विश्वम्भर प्रसाद श्रेष्ठस्य अनिल कुमार सिम्बाविदस्य सपना प्रधान मल्लस्य तेजबहादुर केसी इत्यस्य च सांविधानिक न्यायपीठे ह्य आदेशाभियाचन निवेदनं बृहत्पूर्ण न्यायपीठे प्रेषणीयं न वा सांविधानिक न्यायपीठादेव श्रवणं विधात्। नेपाल भारत संयुक्तायोगस्य षष्ठोपवेश अद्यतो भारतस्य राजधान्यां नयाँ दिल्लीनगरे प्रारभते। उपवेशे सीमा समस्या नेपाल भारत विज्ञ प्रतिवेदनम् 50 ख्रिष्टाब्दीय सन्धि कोविड 19 नियन्त्रणे सहयोगादान प्रदानञ्चेति विषयेषु विमर्शनस्य कार्यसूची निर्धारिता अस्ति। दिनत्रयात्मके उपवेशे भागं ग्रहीतुम् नेपाली समूहस्य नेतृत्वं विदधानः परराष्ट्रमन्त्री प्रदीप कुमार गेवाली अद्य प्रातः नयाँ दिल्ली नगरं प्रतिष्ठते। भ्रमणस्य पूर्व सन्ध्यायां ह्यो रेडियो नेपालस्य प्रमुख संवाददातारं प्रमोद दाहालं नेपाल भारत संयुक्तायोगस्य उपवेशस्य कार्यसूच्या विषय ज्ञापयन् परराष्ट्रमन्त्री गेवाली अवोचत्। उपवेशे नेपालेन प्रकाशितस्य नूतन राजनीतिक मानचित्रस्य विषये गभीरतापूर्वकं विमृश्यते। समस्याया पुनः पुनः उद्भावनस्य अपेक्षया समाधानस्य दिशं प्रति विमर्शनम् अग्रे वर्धाप्यते च। भ्रमणस्य क्रमे कोविड विरुद्धस्य टीकाकरणस्य उपलब्धतायाः विषयेऽपि अतिरिक्तं विमृश्यते इति च परराष्ट्र मन्त्री गेवाली ज्ञापितवान् इति समाचाराः।